अधिष्ठानेमि स्वस्तिनो बृहस्पतिर्दधातुः प्रकृतस्वामरुतः प्रश्निमातरः शुभन्यावानो विदथे सुजग्मयः अग्निर्जीवामनवः सूर्यचक्षुषो विश्वे नो देवा अवसागमन्ने भद्रं कर्णेभिः शृणुयामि देवा भद्रं पश्येमा छविर्जयत्राः निस्थिरैरङ्गैस्तुष्टो वाग्वं स्वस्तनो विर्विश्वे मयि देव हितं जदायुः हरि ॐ गजाननं भूतगणादिशवितां कपीर्थजम्बो फलचारुभक्षणम् उमाश्रुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजं हरि ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः लम्बोदरश्च विघटो धूम्रकेतुर्गणाध्यक्ष भालचन्द्रो गजाननः द्वादशैतानि नामानि यः पठे शृणुयादपि विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा सङ्ग्रामे संकटश्चैव विघ्नस्तस्य न जायते वक्रतुण्ड महाकाय कोटि सूर्य सम प्रभो निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॐ ऋद्धि बुद्धि सिद्धि सहिताय श्रीमन् महागणाधिपते